इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। आदौ मुख्य वार्ताः। जम्मू कश्मीरस्य डोडा जनपदे आतंकवादिनां सैन्यबल भटानां च मध्ये संजाते संघर्षे पञ्च सुरक्षाकर्मिणः वीरगतिं प्राप्ताः। रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यत् भारतीय भटाः आतंकवादं निर्मूलयितुं प्रतिबद्धाः सन्ति। डॉ जयशंकरः अवदत् यत् सः भारत मारिशस देशयोः विशेष सम्बन्धस्य उन्नते उत्सुकः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः न्यायमूर्तिम् एन कोटीश्वर सिंहम् न्यायमूर्तिम् आर महादेवन वर्यञ्च सर्वोच्च न्यायालयस्य न्यायाधीशत्वेन नियुक्तवती। केन्द्र सर्वकारेण राज्याणि केन्द्रशासित प्रदेशाश्च विनिर्दिष्टाः सन्ति यत् ते आरक्षिस्थात्रेषु आरक्षिविभागस्य नियन्त्रणाधीनेषु स्थानेष्च साक्षिजनानां परिपृच्छां नैव कुर्युः। अपि च संयुक्त राष्ट्रमञ्चे नीति आयोगस्य उपाध्यक्षः प्रोक्तवान् यत् भारतं सतत विकासलक्ष्याणां प्राप्तये बृहत्स्तरे भौतिकानाम् अंकीयानाञ्च आधारित संरचनानां साफल्येन प्रवर्तनम् अकरोत्। अथ वार्ताः विस्तरेण। जम्मू कश्मीरस्य डोडा जनपदे आतंकवादिनां सैन्यबल भटानां च मध्ये संजाते संघर्षे सैन्यबलस्य एकेन अधिकारिणा विशेषाभियान दलस्य एकेन भटेन च साकं पञ्च सुरक्षाकर्मिणः वीरगतिं प्राप्ताः। गतरात्रौ डोडा जनपदस्य एकस्मिन् क्षेत्रे सैन्यबलस्य आतंकिनां च मध्ये दुरापन्ने संघर्षे एते भटाः व्रणीभूताः आसन्। अस्माकीनेन जम्मूस्थेन वार्ताहरेण वर्ण्यते यत् तत्र आतंकिनाम् उपस्थितेः सूचनायाः आधारेण राष्ट्रिय राइफल्स सैन्यगुल्मस्य जम्मू कश्मीर आरक्षिबलस्य च विशेषाभियान दलस्य भटैः संयुक्तरूपेण रात्रावेव धारीगोटे इत्याख्यं क्षेत्रं परिधीकृत्य अन्वेषणाभियानं प्रचालितम्। अत्रावसरे संजाते गोलिकाप्रहारे एकं सैन्याधिकारिणं समेत्य पञ्च अन्ये भटाः गाम्भीर्येण व्रणिताः आसन्। ते अद्य प्राणान् अत्यजन्। जम्मू कश्मीरस्य उपराज्यपालेन मनोज सिन्हावर्येण वीरभटानां राष्ट्ररक्षणे कृतं बलिदानं नमनपूर्वकं श्लाघितम् अस्ति। अत्रान्तरे रक्षामन्त्रिणा श्रीराजनाथसिंहेन अस्मिन् आतंकीरोधी अभियाने वीरभटानां वीरगति प्राप्तिविषयम् उपलक्ष्य भृशं दुःखम् अभिव्यक्तम् अस्ति। सामाजिक संचालीये सन्देशे श्रीसिंहेन व्यलेखि यत् राष्ट्रं तेषां सैन्यभटानां परिवारैः समं सुदृढतया स्कन्धेन स्कन्धं संयोज्य तिष्ठति यैः वीरैः राष्ट्ररक्षणस्य कर्तव्यपथे सर्वोच्चं बलिदानं कृतम्। सेनाध्यक्षेण जनरल उपेन्द्र द्विवेदिना अपि प्रकरणेऽस्मिन् संवेदनाः प्रकाशिताः। इतः पूर्वं केन्द्रीयमन्त्रिणा जितेन्द्रसिंहेनापि सामाजिक संचालीये सन्देशे लिखितम् आसीत् यत् सः स्वीय संसदीय क्षेत्रे घटित संघर्ष घटनाभिः भृशं दुःखितो वर्तते। विदेशमन्त्री डॉ जयशंकरः अद्यारभ्य द्विदिवसीय यात्रायै मारिशस देशं गतवान्। डॉ जयशंकरः अद्य मारिशस देशस्य पोर्ट लुईस नगरे प्रधानमन्त्रिणं प्रविन्द जुगनाउथं मिलितवान्। अस्मिन् समये सः मारिशस प्रधानमन्त्रिणं प्रति श्रीनरेन्द्रमोदिनः शुभकामनाः अयच्छत्। डॉ जयशंकरः अवदत् यत् सः भारत मारिशस देशयोः विशेष सम्बन्धस्य उन्नतये उत्सुकः अस्ति। अतोपि सः मारिशसस्य अन्यैः वरिष्ठमन्त्रिभिः सह द्विपक्षीय समागमं करिष्यति। सः अन्यैः प्रमुखैः मारिशस नेतृभिः सह अपि मेलनं करिष्यति। विदेशमन्त्रालयेन उक्तं यत् एषा यात्रा उभयपक्षाभ्यां द्विपक्षीय सम्बन्धस्य विविधपक्षेषु व्यापक समीक्षायाः अवसरं प्रदास्यति। मन्त्रालयेन इदमपि उक्तं यत् एषा यात्रा भारत मारिशस सम्बन्धस्य महत्वं रेखांकयति तथा च भारतस्य प्रतिवेशी प्रथमः इति नीतिं विजन सागरं वैश्विक दक्षिणं प्रति प्रतिबद्धतां च प्रतिबिम्बयति। बहुआयामि द्विपक्षीय सम्बन्धं सुदृढं कर्तुं जनानां निकट सम्बन्धं गभीरं कर्तुं च द्वयोः देशयोः निरन्तर प्रतिबद्धतां च पुनः पुष्टयति। राष्ट्रपतिः द्रौपदी मुर्मुः न्यायमूर्तिम् एन कोटीश्वर सिंहम् न्यायमूर्तिम् आर महादेवन वर्यञ्च सर्वोच्च न्यायालयस्य न्यायाधीशत्वेन नियुक्तवती। ध्येयमस्ति यत् न्यायाधीशः एन कोटीश्वरः जम्मू कश्मीरस्य लद्दाखस्य च उच्चन्यायालये मुख्य न्यायाधीशः आसीत्, अथ च न्यायाधीशः आर महादेवन मद्रास उच्चन्यायालये न्यायाधीशः आसीत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रसर्वकारेण राज्याणि केन्द्रशासितप्रदेशाश्च विनिर्दिष्टास्सन्ति यत् ते आरक्षिस्थात्रेषु आरक्षिविभागस्य नियन्त्रणाधीनेषु च स्थानेषु प्रत्यक्षदर्शिणां साक्षिजनानां परिपृच्छायाः निश्चयनं नैव कुर्युः। केन्द्रीय गृहसचिवः अजय भल्लाः अस्मिन् विषये सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च पत्रं व्यलिखत् यत् त्रयोविंशत्युत्तरद्विसहस्रतमवर्षीयायाः भारतीय नागरिक सुरक्षा संहितायाः अन्तर्गतं सर्वाणि आरक्षिस्थात्राणि विनिर्दिष्टानि सन्ति यत् तानि दृश्य श्रव्य वैद्युतिक माध्यमैः प्रत्यक्षदर्शिणां साक्षिणां वक्तव्यं सुरक्षितुं स्वीकर्तुं च विशिष्टं स्थानं निर्धारितं कुर्युः। भारतेन स्वप्रयत्नानां माध्यमेन सतत विकास लक्ष्याणां प्रगतौ महत्वपूर्णं योगदानं दत्तमस्ति। नीति आयोगस्य उपाध्यक्षेण सुमन बेरी इत्यमुना संयुक्त राष्ट्रसंघस्य एचएलपीएफ इति उच्चस्तरीय राजनैतिक मंचे सामान्य विवादे राष्ट्रिय वक्तव्यं यच्छता भारतस्य सतत विकासाय समावेशी वृद्ध्यै च प्रतिबद्धतायां बलं प्रदत्तम्। वेरी वर्येण उक्तं यत् स्वप्रयत्नेन भारतस्य सतत विकास लक्ष्येषु महत्वपूर्णं योगदानम् अभवत्। सः उल्लेखितवान् यत् भारतं भौतिक अंकीय संरचनानां सफल वितरणस्य माध्यमेन वञ्चनाः न्यूनीकर्तुं डिजिटल वितरणेन सह लक्षित सामाजिक सुरक्षा जाल कार्यक्रमाणां परिष्कृत महिला संस्थानां न्यूनतम विकसित प्रशासनिक क्षेत्रेश्च कार्यकरणद्वारा अस्मिन् क्षेत्रे सफलम् अभवत्। उपाध्यक्षः योजितवान् यत् भारतेन नवीकरणीय ऊर्जायां अर्थव्यवस्थायाः हरितीकरणे च बहु निवेशः कृतः। भारतीय जनता पार्टी दलेन आरोपितं यत् कर्णाटके कांग्रेस शासनकाले विगतवर्षे भ्रष्टाचार प्रकरणानां महिला हिंसानां च वृद्धिः अभवत्। नवदिल्ल्यां पत्रकार सम्मेलनं सम्बोधयन्त्या भाजपादलस्य वरिष्ठया केन्द्रीय मन्त्रिणा शोभाकरन्दलाजे वर्यया आरोपितं यत् मैसूरुनगर विकास प्राधिकारेण कर्णाटकस्य भूमि विनियोगे अनियमितताः विहिताः। मुख्यमंत्री श्री सिद्धरामय्या अपि अस्मिन् कथित भ्रष्टाचारे संलग्नः अस्ति इति वदन्त्या करन्दलाजे वर्यया मुख्यमन्त्रिणः पदाद त्यागपत्रस्य आग्रहः कृतः। तेन सह कर्णाटकस्य अनुसूचित जाति दलितानां विकासाय यद्धनम् आसीत् तस्यापि दुरुपयोगः अभवत् इति शोभाकरन्दलाजे आरोपितवती। वीआईपी पार्टीति दलस्य अध्यक्षः पूर्व मन्त्री च मुकेश सहानी वर्यस्य पितुः जतिन सहानी इत्यस्य हत्या बिहारस्य दरभंगा जनपदे अज्ञातजनैः कृता। आरक्षिबलेन उच्यते यत् अद्य प्रभाते सस्यैव गृहात् तदीयः शवः क्षतविक्षत दशायाम् अधिगतः। दरभंगायाः आरक्षि अधिकारिणा प्रोक्तं यत् प्राथमिक अन्वीक्षणे इत्थं भाति यत् यथा केनापि तीक्ष्णधारेण अस्त्रेण तस्य हत्या जाता इति। अत्रान्तरे बिहार उपमुख्यमन्त्रिणा सम्राट चौधरिणा प्रतिपाद्यते यत् हत्यायाः दोषिजनाः शीघ्रमेव निगडपाशे भविष्यन्ति। भारतीय ऋतुविज्ञान विभागेन अनुमीयते यत् आगामि पञ्चदिनेषु गोवायां मध्यमहाराष्ट्रे गुजराते केरले कर्णाटके च अतोऽपि अतिवृष्टिः भविष्यति। विभागेन इदमपि योजितं यत् तेलंगाणा तटीय आन्ध्रप्रदेश मध्यप्रदेश छत्तीसगढ़ ओडिशा नागालैंड मणिपुर मिजोरम त्रिपुरा तमिलनाडु राज्येषु अतिवृष्टिः भविष्यति। विभागेन हिमाचल प्रदेश उत्तराखण्ड पूर्वीय राजस्थान जम्मू कश्मीर लद्दाख पंजाब हरियाणा दिल्ली उत्तरप्रदेश पश्चिम राजस्थानेषु लघुवृष्टेः अनुमानं कृतमस्ति। प्राक्तन अमेरिका देशीय राष्ट्रपति डोनाल्ड ट्रम्प आधिकारिक रूपेण रिपब्लिकन दलस्य राष्ट्रपति प्रत्याशी घोषितोस्ति इति वार्ताः।